नमस्सर्वेभ्यः। अद्य विभक्तिवर्गे षोडशः पाठः, एप्रिल् मासस्य नवमः दिनाङ्कः। रामो राजमणिः सदा विजयते, रामं रमेशं भजे। रामेणाभिहता निशाचरचमूः, रामाय तस्मै नमः। रामान्नास्ति परायणं परतरं, रामस्य दासोऽस्म्यहम्। रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर। गुरुरेव गतिः गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। चतुर्थी विभक्तेः अध्ययनं प्रचलति। तत्रादौ किञ्चित् पुनरावर्तनं कुर्मः। चतुर्थी विभक्तिः सम्प्रदाने चतुर्थी, सम्प्रदानवाचकाच्छब्दा चतुर्थी विभक्ति भवति। तच्च सम्प्रदानं बहुविधम् अस्ति। तत्र प्रथमं मुख्यं सम्प्रदानमस्ति दानक्रियायाः उद्देश्यम्। यत्र ददाति इति क्रिया अस्ति, तत्र यं प्रति दीयते, यम् उद्दिश्य दानं दीयते, सः सम्प्रदानं भवति। यथा राजा धेनुं ददाति, तत्र दानक्रियायाः कर्म धेनुः। कमुद्दिश्य धेनुः दीयते? विप्राय धेनुं ददाति। अतः विप्रः सम्प्रदानं चतुर्थी विभक्त्या बोध्यते। एतदेव मुख्यं सम्प्रदानम्। अन्यदपि सम्प्रदानमस्ति रुचिधातोः प्रयोगे प्रीयमाणः। रोचते इत्यस्य प्रयोगे यः इच्छति अथवा यस्य प्रीतिः सन्तोषः भवति सः सम्प्रदानम्। यथा बालकाय मोदकं रोचते, तत्र मोदकैः प्रीतः बालः, अतः बालः सम्प्रदानम्। बालाय बालकाय मोदकं रोचते इति प्रयोगः। क्रुध द्रुह ईर्ष्य असूय इत्येतेषां प्रयोगे कोपपात्रस्य, यस्य विषये कोपः, क्रोधः, द्रोहः, ईर्ष्या, असूया इत्येतेषां सर्वेषामपि भेदाः अस्माभिः ज्ञाताः। सर्वत्र एते सर्वेपि भावाः कोपमूलाः। अतः यस्य विषये कोपः अस्ति तस्य सम्प्रदानसंज्ञा भवति। यथा कृष्णाय क्रुध्यति, पाण्डवेभ्यः द्रुह्यति, रुक्मिण्यै ईर्ष्यति इत्यादि कोपपात्रस्य सम्प्रदानसंज्ञा भवति। ततः उपपदचतुर्थी अपि दृष्टा। नमः इति शब्दस्य प्रयोगे तेन सह सम्बन्धे यस्य यत्सम्बन्धी नमस्कारः क्रियते तस्य चतुर्थी विभक्तिः भवति। रामाय नमः, कृष्णाय नमः, देव्यै नमः इत्यादिषु नमःशब्देन योगे चतुर्थी विभक्तिः भवति। चतुर्थी विभक्तेः रूपाणि अपि अस्माभिः अधीतानि। बालाय बालाभ्यां बालेभ्यः इति पुल्लिङ्गे, बालिकायै बालिकाभ्यां बालिकाभ्यः इति स्त्रीलिङ्गे, नार्यै नारीभ्यां नारीभ्यः इति ईकारान्तस्त्रीलिङ्गे, फलाय फलाभ्यां फलेभ्यः इति नपुंसके रूपाणि। सर्वनाम्नां चतुर्थी विभक्तिरूपाण्यपि अधीतानि। तस्मै ताभ्यां तेभ्यः, तस्यै ताभ्यां तेभ्यः, तस्मै ताभ्यां तेभ्यः एतस्मै एताभ्याम् एतेभ्यः एतस्यै एताभ्याम् एताभ्यः एतस्मै एताभ्याम् एतेभ्यः मह्यम् आवाभ्याम् अस्मभ्यम् तुभ्यम् युवाभ्याम् युष्मभ्यम् इत्येवं चतुर्थी विभक्तेः रूपाणि सर्वनामशब्दानाम् अधीतानि. इदानीम् इतोपि केषुचित् स्थलेषु चतुर्थी विभक्तिः उपयुज्यते, तानि किञ्चित् पश्यामः. एकं तु स्मर्तव्यं, चतुर्थी विभक्तेः प्रयोगः बहुषु विभिन्नेषु स्थलेषु भवति. चतुर्थी इस् एन् एक्स्टेन्सिव् विभक्ति. इट् इस् रादर् डिफिकल्ट् टु पिन् पायिण्ट् आल् द केसस् आर् इन्स्टेन्सस् वेर् इन् चतुर्थी इस् यूस्ड्. ओके, सो देर् आर् सेवरल् केसस्. इफ् यु लुक् एट् द अष्टाध्यायी, there are more than 10 sutras which define sampradana, which indirectly govern some chaturthi vibhakti, as also there are sutras which give directly the chaturthi vibhakti, the upapada chaturthi, etc. So it is not possible to comprehensively cover the whole vibhakti, but we will try to make a note of the major cases where chaturthi vibhakti is used. Chaturthi vibhakti. एतानि वाक्यानि पश्यन्तु. भक्तिः ज्ञानाय कल्पते, व्यायामः आरोग्याय कल्पते, हिंसा पापाय भवति. सो इन् सच् केसेस् वेर् यु आर् यूसिङ्ग् कल्पते, जायते और् भवति, इट् मीन्स् भक्तिः ज्ञानाय कल्पते. डिवोशन् लीड्स् टु नालेज्. व्यायामः आरोग्याय कल्पते. एक्सर्सैज् लीड्स् टु हेल्त्, गुड् हेल्त्. हिंसा पापाय भवति. सो वयलेन्स् लीड्स् टु पापम्. सो इन् सच् इन्स्टेन्सेस् वेन् यु आर् यूसिङ्ग् दीस् त्री धातुस्, कल्पते, जायते और् भवति, इन् दिस् सेन्स्, सो वन् थिङ्ग् इस् लीडिङ्ग् इन् टु आर् गेटिङ्ग् कन्वर्टेड् टु द अदर्. सो इन् सच् केसेस् द फैनल्, द एण्ड् प्रोडक्ट् आर् द रिसल्ट् इस् expressed in chaturthi vibhakti. Durvyavaharah dukkhaya bhavati. So evil behavior or bad behavior causes unhappiness. So there is one is the cause and the other is the resultant. So the resultant is used in chaturthi vibhakti. Okay, etadrishanam prayoganam abhyasam kurmah. Atra eteshu पदद्वयं दृश्यते, प्रथमं कारणं, द्वितीयं तस्य फलम्. अतः फलवाचकस्य चतुर्थी विभक्तिः भवति. सो कल्पते अथवा भवति इति धातोः प्रयोगः कर्तुं शक्यः. सो दोस् हू वांट् टु वालंटियर्. पद्मनाभन् महोदय
नमस्ते.
हा वदतु.
अभ्यासप्रावीण्यम् अभ्यासः फलाय कल्पते,
प्रावीण्याय कल्पते.
प्रावीण्याय,
सो अभ्यासः प्रावीण्याय कल्पते. सो प्राक्टीस् लीड्स् टु expertise or perfection.
Paropakaram paropakarah punyaya kalpate.
Paropakarah punyaya kalpate. So helping others leads to punya or merit. Okay, dhanyavadah. Varadarajan mahodaya.
परपीडनम् पापाय भवति.
परपीडनम् पापाय भवति. सो ट्रब्लिङ्ग् अदर्स् लीड्स् टु पाप. परोपकारः पुण्याय, पापाय परपीडनम्. सो इट्स् अ फेमस् श्लोक फ्रम् द महाभारतम्.
యౌవనం గర్వాయ కల్పతే.
యౌవనం గర్వాయ కల్పతే. సో యూత్ లీడ్స్ టు ఆరోగెన్స్. మలకొండయ్య మహోదయ.
సుప్రభాతం మహోదయ. ప్రభుత్వం అవేకాయ భవతి.
అవివేకాయ భవతి.
అవివేకాయ భవతి.
ప్రభుత్వం అవివేకాయ భవతి. ప్రభుత్వం ఇస్ పవర్ ఆర్ అథారిటీ. సో ఇట్ లీడ్స్ టు ఇండిస్క్రిషన్ ఆర్ ఇండిస్క్రిమినేషన్.
అథవా ప్రభుత్వం అవివేకాయ నా భవతి.
Yes. If it does not, you can say na bhavati.
Sampatti ahankaraya bhavati.
Sampatti ahankaraya bhavati. So wealth leads to ahankara. Yes.
Vidya.
No, thank you. Sujata.
Yes, ma'am. విద్యా వివాదాయ కల్పతే.
విద్యా వివాదాయ కల్పతే. సో నాలెడ్జ్ లీడ్స్ టు డిబేట్స్ ఆర్ కలహ.
ధనం మదాయ కల్పతే.
ధనం మదాయ కల్పతే. మదాయ భవతి. మహాదేవన్.
శక్తి పరపీడనాయ భవతి.
శక్తి పరపీడనాయ భవతి. విద్యా జ్ఞానాయ కల్పతే. రామశ్రీధర్ ఆర్ రమాశ్రీధర్, ఐఎమ్ సారీ, ఐఎమ్ నాట్ షూర్. యు ఆర్ మ్యూటెడ్, యు నీడ్ టు క్లిక్ ద మైక్రోఫోన్ టు అన్మ్యూట్ యువర్ సెల్ఫ్.
నమస్తే.
నమస్తే.
నమస్తే. ధనం దానాయ భవతి.
ధనం దానాయ భవతి.
శక్తిః రక్షణాయ భవతి.
శక్తిః రక్షణాయ భవతి. సమ్యక్. సో దిస్ ఇస్ ఎ వెరీ ఫేమస్ శ్లోక. విద్యా వివాదాయ, ధనం మదాయ, శక్తిః పరేషాం పరిపీడనాయ, ఖలస్య సాధోర్ విపరీతమేతత్ జ్ఞానాయ దానాయ చ రక్షణాయ. ఖలస్య ఇన్ కేస్ ఆఫ్ ద ఈవిల్ విద్యా వివాదాయ భవతి. సో లర్నింగ్ విల్ జస్ట్ లీడ్ టు అన్నెసెసరీ క్వారల్స్ ఆర్ డిబేట్స్. ధనం మదాయ భవతి. సో వెల్త్ విల్ జస్ట్ లీడ్ టు అరోగెన్స్. శక్తి పరేషాం పరిపీడనాయ భవతి. అండ్ స్ట్రెంగ్త్ will just cause trouble to others. Khalasya sadhoho. Kintu yadi sadhoho etatrayam bhavati tarhi viparitam etat jnanaya danaya cha rakshanaya. Vidya jnanaya bhavati. So learning will lead to knowledge. Dhanam danaya bhavati. So wealth will lead to charity. Shaktihi rakshanaya. So strength will lead to protection of the helpless. So these three things can be used either for the good or for the evil. Vidya vivadaya, dhanam madaya, shaktih paresham paripeedanaya, khalasya sadhor viparita metat, jnanaya danaya cha rakshanaya. So chaturthi in all cases in that this one. So kenachit prushtam jayate ityasya udaharanam etadeva. It's all these you can also use jayate. Okay, so they can be used alternately for all these things. Okay. So, etadrishaha prayogaha bhutra drishyate, where one thing is leading to the other. Kopaya bhavati, dukkhaya bhavati. Evam, bhutra prayogaha drishyate, chaturthi vibhaktih. ఉపపద చతుర్థే ఉదాహరణ ద్వయమేవ అస్మాభి దృష్టం ఏకం తు నమశబ్దేన యోగే చతుర్థీ భవతి అన్యత్ ఏవం కల్పతే జాయతే భవతి ఇత్యేత దశానాం ప్రయోగే అన్యాన్యపి బహూని పదాని సంతి యైహి యోగే చతుర్థీ విభక్తి దృశ్యతే యథా స్వస్తి మే ఇట్ బి గుడ్ ప్రజాభ్యః స్వస్తి స్వస్తి ప్రజాభ్యః స్వస్తి సజ్జనేభ్యః స్వస్తి విప్రేభ్యః స్వస్తి గోభ్యః సర్వత్ర స్వస్తి ఇతి శబ్దేన యోగే చతుర్థీ విభక్తిః భవతి స్వాహ యజ్ఞాదీనాం కరణే స్వాహ స్వధ వషట్ ఇతి త్రయః శబ్దాః ఉపయుజ్యంతే ఏకస్మిన్ దినే కేనచిద్ అత్రైవ వర్గే ఉక్తం కః భేదః ఇతి స్వధ ఇత్యేతత్ పితృభ్యః యదా హవిః దీయతే తదా స్వధ ఇతి స్వాహ ఇతి వషట్ గృహీయ యజ్ఞేషు స్వాహ అథవా హోమ హవనాదిషు స్వాహ ఇత్యుపయుజ్యతే తదతిరిచ్య గృహాగ్నిం అర్జయిత్వా అన్యత్ర యః యజ్ఞః అథవా కర్మ క్రియతే తత్ర వషట్ ఇతి ఉపయుజ్యతే ఇతి సో దీస్ త్రీ వర్డ్స్ విచ్ ఇండికేట్ ఆఫరింగ్ తత్ర యస్మై దీయతే తస్య చతుర్థీ విభక్తిః భవతి ఇంద్రాయ స్వాహ పితృభ్య స్వాహ స్వధ వషట్ ఇంద్రాయ ఇత్యాది తత్ర ఏతైహి యోగే చతుర్థీ విభక్తిః భవతి సుఖం సంథింగ్ విచ్ ఇస్ ప్లీజింగ్ గోభ్యః సుఖం ప్రజాభ్యః సుఖం ఇత్యర్థే ఏవం హితం దట్ విచ్ ఇస్ గుడ్ ఫార్ సో అగైన్ పుత్రేభ్యః హితం ప్రజాభ్యః హితం దరిద్రేభ్యః హితం ఇత్యాది And not only these. This is again not a comprehensive list. So there are many such words which govern Chaturthi Vibhakti in their use. So when we come across them, you can find that there is a sutra which governs them. So we are not going into detailed practice of all these. So it's just you can remember some of the common words which govern Chaturthi Vibhakti. So agre, itopi sthaladvayam. అథవా త్రయమస్తి యత్ర చతుర్థీ విభక్తేః ప్రయోగః బహుధా దృశ్యతే తత్ పశ్యామః ఏకం తు గత్యర్థక ధాతూనాం ప్రయోగే కర్మపదాత్ చతుర్థీ విభక్తిః భవతి ఏ ధాతవః గతిం గచ్ఛతి ఇత్యర్థే ఏ ధాతవః సంతి గచ్ఛతి యాతి వ్రజతి ఇత్యాదయః బహవః ధాతవః సంతి తత్ర కర్మపదాత్ చతుర్థీ విభక్తిః సః గృహం గచ్ఛతి సః గృహాయ గచ్ఛతి ఉభయమపి సాధు బోత్ ఆర్ కరెక్ట్ సో విత్ ధాతుస్ విచ్ మీన్ టు గో ద కర్మపద ద ఆబ్జెక్ట్ కెన్ బి యూస్డ్ బోత్ ఇన్ ద్వితీయ అండ్ ఇన్ చతుర్థీ విభక్తి ద్వితీయాయాః తథా చతుర్థ్యాః ఉభయోః ప్రయోగః భవతి సః గృహం గచ్ఛతి సః గృహాయ గచ్ఛతి బాలికా శాలాం యాతి బాలికా శాలాయై యాతి రామః వనం వ్రజతి రామః వనాయ వ్రజతి సో ఏతే సర్వే ధాతవః గచ్ఛతి యాతి వ్రజతి ఇత్యేతే గత్యర్థకాః అతః కర్మపదాత్ ద్వితీయా చతుర్థీ ఇతి విభక్తి ద్వయమపి భవతి బోత్ విభక్తీస్ ఆర్ కరెక్ట్ సో ఏకం అభ్యాసం కుర్మః కుత్ర కుత్ర గచ్ఛతి ఇతి ద్వితీయా చతుర్థి ఉభయోః విభక్త్యోః ఉపయోగం కృత్వా వక్తవ్యం వెంకటేశ్వరన్ మహోదయ
సహ దేవాలయాయ గచ్చతి
ద్వితీయ
సహ దేవాలయం గచ్చతి సహ యజ్ఞశాలాయ గచ్చతి యజ్ఞశాలాం గచ్చతి
చతుర్థి
యజ్ఞశాలాయ గచ్చతి
స్త్రీలింగం
दीर्घं गच्छशालायै गच्छति
यज्ञशालां गच्छति यज्ञशालायै गच्छति
सा नद्यै गच्छति सा नदीभ्यां गच्छति सा गृहं
न न तत्र नदी इत्यत्र नद्यै गच्छति नदीं गच्छति नदीम् इति द्वितीया
नदीं गृहं गृहाय गच्छति गृहं गच्छति
धन्यवादाः गृहं गच्छति गृहाय गच्छति शिवराम कुलकर्णी
नमो नमः सः ग्रामं गच्छति वा सः ग्रामाय गच्छति सः मन्दिरं गच्छति वा सः मन्दिराय गच्छति सः अटवीं गच्छति वा सः अटव्यै गच्छति
अटव्यै गच्छति
अटव्यै गच्छति सः सभां गच्छति वा सः सभायै गच्छति
सभां गच्छति सभायै गच्छति सो अटवी अटव्यरण्यं वितिनं गहनं काननं वनं वनम् इत्यर्थः अन्येषां पदानाम् अर्थः ज्ञायेत एवं गत्यर्थकानां प्रयोगे द्वितीया चतुर्थी इति उभयोः विभक्त्योः प्रयोगः भवति इदानीम् अग्रिमं पश्यामः एतत् आदौ वाक्यं पश्यन्तु अनन्तरम् अवगमनं भवति सीता पुष्पाणि आनेतुम् उद्यानं गच्छति इति प्रयोगः अत्र आनेतुम् इति पदं तुमुन्नन्तम् इत्युच्यते प्रायेण सर्वेषां ज्ञानं स्यात् तथापि किञ्चित् वदामि आनेतुम् इति कृदन्तम् अव्ययं तुमुन् इति प्रत्ययः सर्वेभ्यः धातुभ्यः योज्यते सो अन्यत् कार्यं कर्तुं सो कार्यद्वयं भवति सो देर् आर् टु वर्क्स् सो एकम् आदौ क्रियते अनन्तरं अन्यत् कार्यं क्रियते प्रथमस्य कार्यस्य उद्देश्यं भवति द्वितीयं कार्यं सो द पर्पस् आफ् पर्फार्मिङ्ग् वन् इस् द अदर् कार्य सो इन् सच् केसस् द उद्देश्यक्रिया या अस्ति तस्याः तद्वाचकात् धातोः तुमुन् प्रत्ययः भवति यथा पुष्पाणि आनेतुम् उद्यानं गच्छति उद्यानं गच्छति गच्छति इति एका क्रिया पुष्पाणि आनयति इति अपरा क्रिया तत्र गमनक्रियायाः उद्देश्यं भवति आनयनम् सो द पर्पस् आफ् गोयिङ्ग् इस् टु ब्रिङ्ग् फ्लार्स् अतः आनेतुम् सो सीता गोस् टु द गार्डन् टु ब्रिङ्ग् फ्लार्स् बालः पठितुं शालां गच्छति नारी शाटिकां क्रेतुम् आपणं गच्छति एवं तुमुन् इति तुमुन्नन्तस्य प्रयोगाः दृश्यन्ते अत्र आनेतुम् इति तुमुन् तस्य कर्मपदं किम् पुष्पाणि आनेतुं टु ब्रिङ्ग् फ्लार्स् कार्यद्वयमस्ति गच्छति गमधातोः प्रयोगः तत्र कर्मपदमस्ति उद्यानम् उद्यानं गच्छति किमर्थम् उद्यानं गच्छति पुष्पाणि आनेतुं पुष्पाणि इति कर्मपदम् ओके सो देर् इस् अ तुमुन्नन्त एण्ड् देर् इस् अ कर्मपद तुमुन्नन्तस्य प्रयोगः अस्ति तस्य कर्मपदमस्ति अस्ति इदानीं यदा तुमुन् नास्ति इफ् यु जस्ट् रिमूव् द तुमुन् द रिमेनिङ्ग् कर्मपद ओके पुष्पाणि इत्यस्ति तस्य चतुर्थी विभक्तिः भवति पुष्पेभ्यः सीता पुष्पेभ्यः उद्यानं गच्छति इति वाक्यं कः अर्थः पुष्पाणि आनेतुम् उद्यानं गच्छति इत्येव अर्थः द पर्पस् आफ् संथिङ्ग् ओके सो देर् देर् इस् अ हिडन् तुमुन् द तुमुन् वेन् देर् इस् अ तुमुन् इट् इस् द कर्मपद फार् द तुमुन् सो वि विल् से सीता पुष्पाणि आनेतुम् उद्यानं गच्छति यदा तुमुन् नास्ति तदा तस्मात् कर्मपदादेव चतुर्थी विभक्तिः भवति सीता पुष्पेभ्यः उद्यानं गच्छति सीता गोस् टु द गार्डन फॉर फ्लावर्स मीनिंग फॉर ब्रिंगिंग फ्लावर्स द ब्रिंगिंग इज It is implied, not directly stated in the sentence. So, in such cases, we are using Chaturthi Vibhakti. Anyani udaharanani pashyamaha. Balakaha phalani kretum dasharupyakani dadati. Balakaha dasharupyakani dadati. Kimartham phalani kretum. To buy fruit. Kretum iti yadi nishkasyama. So if we are not using kretum, balakaha phalebhyaha dasharupyakani dadati. So the boy gives 10 rupees for the fruit. Okay. Raghuvamshe ekaha prasiddhaha shlokaha asti. Tatra mallinathena vyakhyane saksha darshyate etadushaha prayogaha. Dudoha gamsa yajnaya sasyaya maghavadivam. Raghuvamshasya prathama sarge maharajasya dilipasya varnanam asti. Saha yajnaya gam dudoha. Tatra vyakhyanam, this is direct from the vyakhyana of mallinatha. Saha raja dilipaha yajnaya. यज्ञं कर्तुम् सत्र यज्ञाय इत्यस्य कः अर्थः यज्ञं कर्तुम् कर्तुम् इति तुमुन् यदा तुमुनः प्रयोगः नास्ति तदा यज्ञाय इति चतुर्थी यज्ञं कर्तुम् गाम भुवं दुदोह सो हि मिल्क्स द अर्थ दैट इज हि कलेक्टेड टैक्सेस फॉर द पर्पस ऑफ यज्ञ मघवा देवेन्द्रः इत्यर्थः सस्याय सस्यं वर्धयितुम् टु ग्रो plants divam swargam dudoha so he milks the heaven to give rains so devendra is the adhidevata of rains vai sasyaya sasyam vardhayitum to grow the plants so dudoha gamsa yajnaya so for the purpose of yajna meaning yajnam kartum and for the purpose of sasya that is sasyam vardhayitum to grow the this one. So here Mallinatha very clearly shows the tumun and he states the sutra. There is a sutra which governs it. Okay. So in such cases we use chaturthi vibhakti. Okay. Atra prashna asti purvatana sita pushpebhyaha udyanam gachati. Can we also say sita pushpebhyaha udyanaya gachati? Of course you can. That तत्तु गच्छति इति धातोः विषये यत् कर्मपदं तत् द्वितीया चतुर्थी उभयत्र भवितुम् अर्हति पुष्पेभ्यः उद्यानाय गच्छति इत्यपि वक्तुं शक्यते ओके इदानीम् अभ्यासं कुर्मः एकं वाक्यमस्ति तत्र तुमुन् अस्ति तस्य कर्मपदमपि अस्ति अतः कर्मपदात् चतुर्थी विभक्तिः कर्तव्या Okay, like we did in the earlier ones. Meenakshi.
Govindaha pustakebhyaha apanam gacchati.
Govindaha pustakebhyaha apanam gacchati. So he goes to the store for books. पुस्तकानि क्रेतुम् इत्यर्थः
आपणाय गच्छति
आपणाय गच्छति यस् यस् दट् इस् करेक्ट्
मुनिः
ओ सारि दे शुड् हव् बीन् बालः बट् मुनिः वास् फर् द अदर् वन्
शालां गच्छति
Sorry, repeat.
Pathaya shalaya gacchati.
Pathaya shalam gacchati or shalayai gacchati. Yeah.
Yes, shalayai gacchati.
One moment.
One question.
Yes.
in the previous exercise, kalpate bhavati, both the meaning is the same.
Yeah, in this context, yes, it is the same. It becomes or causes or leads to. Harmandar Singh.
Prekshakah Sangeetam Shrotum Kala Mandiram Gacchanti. Prekshakah Sangeetaya Kala Mandiram Gacchanti.
Correct. Sangeetaya Kala Mandiram Gacchanti.
Makshikah Makarandam Patum Pushpani Anvishyanti. Makshikah Makarandaya Pushpani Anvishayanti.
Yes. So the bees, thank you. The bees search for flowers, search flowers for nectar. Okay. Paul, do you want to have a go?
Vattaha Vatuho Iksham Yachitum Grahat Graham Atati. Vatuho Iksaya
Iksayai
Grahat Graham Atati.
Vatuhu bhikshayai grihat griham atati. So Vatu is the brahmacharin. He wanders from house to house for bhiksha.
Rishikaha sasyani vardhayitum shramam vahanti. Krishikah sasyaya
bahuvachanam.
Oh yeah, that's what I'm trying to do. Okay, sasya bihi.
Sasyaya sasyabhyam sasyebhya
sasyebhya. Oh boy, okay. Krishikah sasyebhyah shramam vahanti.
Vahanti. Shramam vahanti. They put in their efforts for the crops. Okay. Okay. Atra kashchana prashnah asti tatra vatuhu bhikshaam yachitum grahat graham atati ityas asti. So grahat grahaya atati ityapi vaktum shakyateva iti. Theoretically, yes, you can say that there is nothing wrong because atati is also a gatyarthaka dhatu, but the common usage is grahat graham, from to. So grahat graham ityeva prayah drishyate kintu grahat grahaya ityatra kupi doshaha nasti. Okay. Idanim tumunaha esha eva tumunaha karma padate chaturthi vibhakti bahutra drishyate. There are many cases where when chaturthi cannot be justified by other means, we can use this, the implied tumun, for justifying the chaturthi. The last case we are dealing with is tadarthye chaturthi. Here this is a sort of a controversial thing. What is tadarthya? Tasya tasmai idam tadartham tadarthasya bhavah tadarthyam, for that iti uchyate. So tadarthya chaturthi vachyati vartikam asti kintu tadarthya shabdena kim uchyate, because this tadarthya chaturthi, many of the times it treads on the border of many other sutras which also give chaturthi, making them sort of purposeless. So there are quite a bit of, you know, the Shastric fights regarding this. So now we will take the two accepted cases where Tadarthya Chaturthi One is what we call the prakriti vikriti bhavaha. Udaharanam pashyamaha, yupaya daru. Daru, kashtam, wood. Yupaha, yupaha is the the sacrificial altar, the yajna stambha. Okay, in those times, during the yajna, there is the pillar which is erected of wood. Okay, that is called the yupa. So, yupaya daru, wood for the yupa. Now, here the wood itself is getting converted to the form of yupa. So, daru prakritihi, yupaha vikritihi. Okay, so when the same thing, the raw material is being converted to a finished product, that is what we call the prakriti vikriti bhava. Kundalaya hiranyam. Kundalam is the ear ornament. Hiranyam is gold. So, gold for the ear ornament. So, in such cases, what is the resultant that we are expecting? So, in that cases, we use tadarthye chaturthi. And you should also notice that in most cases, it is between two substances. It is two nouns or two padarthas and not a kriya. So, wherever there is an action involved, we have the karaka. Okay. So, this is mostly between padarthas. So, for prakriti vikriti bhava, the vikriti, the finished product, it gets chaturthi vibhakti. Okay. So, there is another kind of thing called the upakarya upakaraka bhava. Excuse me, there is a typo here. Just one moment. Upakarya upakaraka bhavaha. So, upakarya, that which is being assisted or helped or, being upakaraka is that which is helping or not necessarily helping, serving somebody. So, the one who is being served or helped or assisted is called upakarya. Say, for example, when you say something like bhikshukaya annam, food for the bhikshuka. So, Anna is the upakaraka and bhikshuka is the upakarya, he who is being served or helped by the Anna. Okay. Bhikshukaya annam. Vipraya gauhu. So, gauhu, cow for the Brahmin. So, here it is not vipraya gauhu diyate, it is not giving the action, even if it is not implied, that is, it is giving. So, it is just meant for the vipra. So, vipra is the upakarya and gauhu is the upakaraka. So, in such cases also, we have chaturthi vibhakti. Okay. So, we will practice some of these. Venkateshwaran Mohammed.
Nupuraya Raja Rajat Nupuraya Rajatam.
Nupure iti Dvivachanam. Nupuram Nupure.
Nupure. Nupure
Nupurabhyam Rajatam. So, silver for the anklets. Nupurabhyam Rajatam.
Dvaraya Kashtam.
Dvaraya Kashtam. The wood for the door. So, there is a special kind of wood which is used for preparing the door. So, Dvaraya Kashtam. Mahadevan.
Ghritaya Navaneetam.
Ghritaya Navaneetam. Navaneetam, butter for ghee. That is for clarifying to get ghee. ghatebhyah mrittika. So mud or clay for the pots. So in all these cases you can notice that it is prakriti vikriti. The second word is the prakriti. Using that we are preparing the vikriti. Sharma Mahode. Hariyam. Sharma Mahodaya. Nashruyate. Banebhya ayaha. Ayaha is iron. Iron for the arrows. Urukaya vastram. Dhanyavadaha. Urukam is pant. So material, that is cloth, which is meant for stitching or sewing a pant. Urukaya vastram. So all these are examples of tadarthe chaturthi, that is for the purpose of something where we have the prakriti vikriti bhava. Okay. Others who want to try? Ramanujan?
Balebhyaha vastrani.
Balebhyaha vastrani for the kids. So you can notice the difference between say urukaya vastram and balaya vastram. Okay. So even though the expression is similar, there is a difference. In one case, it is the vastra itself which is getting converted to the uruka. In this case, where bala is the upakarya, he is being served by the vastra.
Yachakebhyah bhojanam.
Yachakebhyah bhojanam. Food for the those who ask for it, or the beggars, or the needy. Okay. Next, Sujata.
Yes, ma'am. Yodhaya ayudham.
Yodhaya ayudham. Weapon for the soldier.
Kushikebhya. Kushikaya. Sahaya dhanam.
Bahuvachanam.
Kushikebhya. Sahaya dhanam.
Kushikebhya. Sahaya dhanam. So it is assistance for the farmers. Rao Mahode.
Hello, Suyate wa?
Haan, Suyate.
Daridre bhyah gruhani.
So houses for the poor.
Ambaya Shatika.
Amba Strilingam.
Ambayi Shatika.
Ambayi Shatika. Sari for the mother. So in such cases we have Chaturthi Vibhakti. Okay, so with this we have covered the major cases of usage of Chaturthi Vibhakti. Etadatiriche Bahushu Vishishta Staleshopi Chaturthi Vibhaktehe Prayogaha Drishyate Yatra Vishishtaha Arthaha Bodhyante Tatra Kanchana Prayogan Pashyamaha Balika Pushpebhyaha Sprihayati Sprihayati Ichhati Ityarthaha Tatra Yad Vastu Ichhati Tasmad Vastunaha Chaturthi Vibhaktihi Bhavati Sprih Dhatoho Prayoge. Okay. So Ruch and Sprih, they are a pair. So in case of Rochate, the person who likes gets Chaturthi. Whereas in case of Sprihayati, the thing which is liked. So Balaya Modakam Rochate, Balaha Modakaya Sprihayati. So Balikayai Pushpani Rochante, Balika Pushpebhya Sprihayati. So the one on which Chaturthi is used will interchange. So Sprihadhatoho Prayoge. Yad vastu ishyate tasmat chaturthi vibhaktihi bhavati. Govindaha krishnaya shatam dharayati. Dharayati is to owe. You have borrowed something from somebody and you owe them back. Govindaha krishnaya shatam dharayati. So Govinda owes 100 rupees to Krishna. So he has borrowed 100 from Krishna and he has to give it back. Ityarthaha. So Govindaha krishnaya shatam dharayati. Aham mitraya sahasram dharayami. I owe my friend 1000. So dharayati ityasya prayoge. Yasmai datavyam. He to whom it has to be repaid gets chaturthi vibhakti. Ramaha maharshibhyaha rakshasavadham pratishrinoti. Rama promises, pratishrinoti is to promise. Okay, promise in response to a request. Rakshasavadham, promise killing of demons to the seers. So the maharshis, the sages, asked Rama to help them to save them from the torture of the demons. So in return, Rama promises them to kill the demons. So Maharshibhyaha Rakshasavadham Pratishrinoti. Pratishrinoti ityasya prayoge. To whom the promise is made. So that gets chaturthi. Sita Ravanam Trinaya Manyate. Sita considers Ravana equal to a grass, a blade of grass. So, in case of apamana or tiraskara, rejection of somebody. So, Ravanam trinaya manyate. Okay. So, such usages are very special. She considers her not even equal to a blade of grass. Natvam trinaya manye. I don't even consider you equal to a blade of grass. It is seen in the Ramayana itself. So such usages you have chaturthi. Gopi Krishnaya Tishthate. Gopi Tishthate. You can see there are two special things. Tishthate iti Atmane Pada Prayogaha. And Krishnaya Tishthate. So stands. So stands in an effort to communicate something to Krishna. Okay, she says she will go, but she does not go. She stands communicating something to Krishna. Okay, so these are all special instances. So in which we have the usage of Chaturthi Vibhakti. So with this we have come to the end of Chaturthi Vibhakti. In the next class we will start with Panchami Vibhakti. Okay. Any questions? Satra Rupyakani, is it to be understood? Iti Prashna. Govindaha Krishnaya Shatam Dharayati. Iti. Yes, it can be known from the context. I mean, it could be anything, 100. It could be 100 books or $100 or 100 rupees. So we don't know what it is. It has to be known from the context. You can say Shatam Rupyakani Dharayati if you want to be specific. That is possible. So, Shatam Dharayati is also an accepted usage. Okay. Malakundaya Mahalaya, Prashna Hastiva.
Rajati meaning, Ayaha meaning.
Rajati Gachati.
Ayaha.
Iron. I-R-O-N. Iron. The metal. Iron is called Ayaha.
Ayaha is a metal, eh? Metal.
Iron. Iron. I-R-O-N. Ayaskantam is magnet. That which attracts Ayaha is Ayaskanta. Is a magnet.
In Sanskrit also Ayaskantam, madam. Telugu Ayaskantam.
It is Sanskrit, borrowed from it. Even in Kannada, it is Ayaskanta. So there is no other way. It's from Sanskrit.
Dhanyavaad.
Kanta means that which is attractive. Yes. Astu atra hatayamaha punaha agrimavarge panchami vibhaktehe abhyasam kurmaha sarvesham yugadi parvanaha nutana samvatsarasya cha shubhashayah. Ramo Rajamanisada Vijayate Ramam Rameshaṁ Bhaje Ramena Bhihata Nishacharachamuhu Ramaya Tasmai Namaha Ramannasti Parayanam Parataram Ramasya Rasosmyaham Rame Chittalayasada Bhavatume Bho Ramama Muddhara Guru Reva Gatihi Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave Naguroh paramam shishurasmi guroh matirasmi guroh mamapahi guroh.